एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। सांविधानिक परिषदा सर्वोच्च न्यायालयस्य रिक्ते प्रधान न्यायाधीश पदे नियुक्ते डाक्टर मनोज शर्मणः नाम परामृष्टमस्ति। सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालय हे उपविष्टेन मन्त्री परिषदः उपवेशेन प्रधान न्यायाधीश पदे नियुक्तये सर्वोच्च न्यायालयस्य न्यायाधीशस्य शर्मणः नाम परामृष्टमस्ति। न्याय परिषदा प्रधान न्यायाधीश पदे नियुक्तये सर्वोच्च न्यायालयस्य षण्णाम् न्यायाधीशानाम् नामानि सांविधानिक परिषदि प्रस्तुतानि आसन्। ततः सांविधानिक परिषदा तेषु मध्ये डाक्टर शर्मणः नाम परामृष्टम् वर्तते। परामृष्टस्य डाक्टर शर्मणः नाम संसदीय श्रवण समित्या अनुमोदिते सति असौ नेपालस्य त्रयस्त्रिंशः प्रधान न्यायाधीशः भविता। षट्सप्तत्युत्तर द्विसहस्रतम विक्रमाब्दस्य वैशाख मासस्य षष्ठी दिवसे सर्वोच्च न्यायालयस्य न्यायाधीश पदे नियुक्तस्य शर्मणः नाम संसदीय श्रवण समित्या स्वीकृते सति असौ आगामिनां षण्णां वर्षाणां कृते देशस्य प्रधान न्यायाधीशः भविष्यति। अधिकार दुरूपयोगानुसन्धान आयोगेन पोखरा क्षेत्रीयान्तर्राष्ट्रिय विमानस्थलस्य निर्माणस्य क्रमे भ्रष्टाचारो विहितोऽस्तीति आरोपे तात्कालिकार्थमन्त्रिणा ज्ञानेन्द्र बहादुर कार्की इत्यनेन सहितानां चतुर्दश जनानां विरूद्धे विशेष न्यायालये आरोपपत्रं पञ्जीकारितमस्ति। आयोगेन विमानस्थलस्य निर्माणस्य क्रमे मूल संविधायाः प्रावधानस्य विपरीततया निर्माण संस्थायै करं वञ्चयित्वा आर्थिकानियमितता विहिता उल्लिख्य आरोपपत्रं पञ्जीकारितमस्तीति आयोगस्य सहायक प्रवक्ता गणेश बहादुर अधिकारी असूचयत्। आयोगेन पूर्व अर्थमन्त्रिणा कार्किना सहितानां चतुर्दश जनानां विरूद्धे त्रयाणाम् अब्जानां द्वाषष्टेः कोटीनां पञ्चानां लक्षाणां च रूप्यकाणां हानिवित्तमभियाच्य आरोपपत्रं पञ्जीकारितमस्ति। आयोगेन तात्कालिकार्थमन्त्रिणा कार्की इत्यनेन सहितानां पूर्व अर्थसचिवस्य शंकर प्रसाद अधिकारिणः तात्कालिकस्य पर्यटन सचिवस्य महेश्वर नेउपानेभिदस्य तात्कालिक सहसचिवद्वयोः सुरेश आचार्यस्य डुण्डुराज घिमिरेभिदस्य च पूर्व सचिवस्य केवल भण्डारिणः नागरिकोड्डयन प्राधिकरणस्य तात्कालिक महानिर्देशकस्य संजीव गौतमस्य निवर्तमान महानिर्देशकस्य प्रदीप अधिकारिणः उपसचिवस्य युवराज पाण्डेभिदस्य शाखाधिकृतस्य उर्मिला भण्डारी इत्यस्य स्थपतेः योगेश अर्यालस्य च विरूद्धे आरोपपत्रं पञ्जीकारितमस्ति। आयोगेन चीनदेशीयायाः सीएमसी इत्याख्यायाः निर्माण संस्थायाः अध्यक्षस्य परियोजना व्यवस्थापकस्य संस्थायाः व्यवस्थापकस्य च विरुद्धे आरोपपत्रं पञ्जीकारितमस्ति। एकादशः राष्ट्रिय पत्रकारिता दिवसः या विभिन्नैः कार्यक्रमैः सह समायोजितोऽस्ति। गोरखापत्रस्य प्रथम प्रकाशन दिवसमुपलक्ष्य प्रतिवर्षं वैशाख मासस्य चतुर्विंशे दिवसे राष्ट्रिय पत्रकारिता दिवसो मन्यते। सुशासनस्य आधारः प्रविधि मैत्री दायित्ववाही च पत्रकारः इति मूल समाघोषणया सह एकादशः राष्ट्रिय पत्रकारिता दिवसः समायोजितो वर्तते। दिवसमुपलक्ष्य ह्य संचार सूचना प्रविधि मन्त्रालयेन आयोजितं पुरस्कार वितरण कार्यक्रमं सम्बोधयन् राष्ट्रपतिः पौडेलः नेपालस्य राजनीतिक सामाजिक सांस्कृतिक प्रवृत्तिषु परिवर्तनेषु नेपाली पत्रकारिता क्षेत्रेण निर्विढा भूमिका उल्लेखनीयास्तीति प्रावोचत्। राष्ट्रपतिः पौडेलः विभिन्नेषु समयेषु सम्भूतेषु जनान्दोलनेषु संघर्षेषु च नेपाली जनतया प्रकटितस्य सुशासनस्य विकासस्य प्रगतेः आर्थिक समृद्धेश्च युगानुकूलाम् आकांक्षां पूरयितुं नेपाली प्रकाशन क्षेत्रेण इतोपि प्रभावपूर्णरूपेण कार्यं करिष्यति इति विश्वासम् अभिव्यनक्। तदवसरे राष्ट्रपतिः पौडेलः वरिष्ठ पत्रकार सम्मानेन चन्द्रकिशोर झा इत्यमुं नम्रता शर्मा इति मां च सममानयत्। एवमेव भोला पासवान उमेश श्रेष्ठः रूपा गहतराज च राष्ट्रिय पत्रकारिता पुरस्कारेण सम्मानिताः सन्ति। नेपाले समाचार पत्र प्रकाशनस्य षड्विंशत्युत्तर शतवर्षाणि व्यतीतानि सन्ति। षड्विंशत्युत्तर शतवर्षेभ्य पूर्वम् अष्टपञ्चाशदधिकैकोनविंशतितमस्य विक्रमाब्दस्य वैशाख मासस्य चतुर्विंशे दिवसे नेपालस्य इतिहासे एव प्रथमवारं गोरखापत्रीति समाचार पत्रिका प्रकाशिता आसीत्। गोरखापत्र प्रकाशनस्य षड्विंशत्युत्तर शतवर्ष प्रवेशस्य गोर्खापत्र संस्थानस्य स्थापनायाः चतुःषष्टि वर्ष पूरणस्य चावसरे संस्थानेन काष्ठमण्डपे ह्य आयोजितं विशेष समारोहं सम्बोधयता संचार सूचना प्रविधि मन्त्रिणा विक्रम तिमिल्सिना विधेन संचार माध्यमं प्रति जनतया धृताम् अपेक्षां विश्वासं च विचार्य कार्यं कर्तव्यं भवतीति च धारणा अभिव्यक्ता अस्ति। डाक्टर तिमिल्सिना नेपालस्य संविधानेन पूर्ण प्रकाशन स्वतन्त्रतायाः प्रत्याभूतिर्विहिता अस्ति इति चर्चयन् कारः संचार क्षेत्रस्य नियमनस्य पक्षे नास्ति इति समस्पष्टयत्। संसदीय समितौ वार्तायाः संवादस्य च माध्यमेन नेपालस्य लिपुलेख कालापानी लिम्पिया धुरा चेति स्थानानि प्रत्यावर्तयितुं प्रभावपूर्ण कौटनीतिकः प्रयासः विधातव्य इत्यत्र बलं प्रदत्तमस्ति। प्रतिनिधिसभा अन्तर्गतायाः अन्तर्राष्ट्रिय सम्बन्ध पर्यटन समितेः ह्यस्तनोपवेशे सांसदः लिपुलेख स्थानस्य विषये भारत चीन सर्वकाराभ्यां नेपाल सर्वकारस्य पक्षतः प्रेषितं कौटनीतिक वक्तव्यं समीचीन रूपेण गृहीतमस्ति इति धारणां व्यक्तवन्तः। भारत चीन देशयोः द्वयोः प्रतिवेशिनोः सम्बन्धं सन्तुलितं विधाय वाणिज्यं पारवहनं सीमाक्षेत्रञ्च सुव्यवस्थितानि विधातुं परामर्शं दत्तवन्तः। नेपालस्य दीर्घतमायाः यात्रायाः रूपेण विद्यमानायाः ललितपुरस्य रक्तमत्सेन्द्रनाथस्य यात्रायाः अन्तर्गतस्य रथाकर्षणस्य शुभमुहूर्तः आषाढमासस्य तृतीये दिवसे बुधवासरे वर्तते इति निर्धारितमस्ति। ललितपुरस्य मंगलबजारवर्तिनी सोरखुट्टे इति स्थाने ह्य प्रातः ज्योतिषशास्त्रीभिः मत्स्येन्द्रनाथस्य रथस्य पश्चिमदिशं प्रति यात्रायाः कृते मुहूर्तदर्शनस्य क्रमे अस्मिन् वर्षे अधिकमासोऽस्तीत्यतः आषाढमासस्य तृतीये दिवसे रथयात्रायाः उत्तम मुहूर्तोऽस्ति इति निष्कर्षः प्रकाशितो वर्तते। वैशाखमासस्य अष्टमात् दिवसात् पुलचोकस्थानात् प्रारब्धा रथयात्रा गावहाल सुन्धारा मार्गात् लगनखेलस्थानं प्रापिता अस्ति। आषाढस्य तृतीये दिवसे मत्स्येन्द्रनाथस्य रथ लगनखेलस्थानात् आकृष्य जावलाखेलस्थानं प्रापयिष्यते। रथस्य जावलाखेलस्थानं प्राप्तेः चतुर्थे दिवसे कञ्चुक प्रदर्शन यात्रायाः अनन्तरं अस्य वर्षस्य रथयात्रा सम्पत्स्यते। इति समाचारः।